नमस्कारः, किरातार्जुनीयस्य अष्टत्रिंशत्तमः श्लोकः। पुराधिरूढशयनं महाधनं विबोध्यसे यस्तुतिगीतिमङ्गलैः अदभ्रदर्भामधिशय्य सस्थलीं जहासि निद्राम शिवैशिवारुतैः। पुरा अधिरूढः शयनं महाधनं विबोध्यसे यहा स्तुति गीति मंगलैः अदभ्रदर्भाम अधिशय्य सहा स्थलीं जहासी निद्राम अशिवैः शिवारुतैः। द्रौपदी पूर्वोक्तैः श्लोकैः प्रथमं भीमस्य स्थितिं वर्णयति। सा भीमः पूर्वं रथचारी आसीत्, अनन्तरं रक्तचन्द्रलिप्तशरीरः आसीत्, इदानीं तु रेणुरूषितशरीरः पदातिः पादचारी च अस्ति इति। अर्जुनः धनञ्जयः तु उतरान् कुरून् जित्वा बहून् रजतस्वर्णान् धनं च आनीतवान्, आनीय दत्तवान्, न केवलम् आनीतवान् दत्तवान् च। किन्तु इदानीं भवतः कृते वल्कलं सम्पादयन् अस्ति इति तद्दृष्ट्वा अपि भवतः कोपः कथं न आगतः इति अर्जुनस्य विषये। पुनः नकुलसहदेवौ यमौ कथौ कथम् आस्ताम् इत्युक्ते द्वौ अपि कोमलशरीरौ शरीरौ आस्ताम्। इदानीं वनप्रदेशेषु शयनं कृतवन्तौ इति कारणात् कठिनशरीरिणौ जातौ, शरीरं किल शरीरौ जातौ। पुनः विकीर्णाः केशाः तथा सर्वतः इति आसीत्, समन्तात् विकीर्णकेशौ, अनन्तरं पर्वतात् आगतौ गजौ इव कष्टम् अनुभवन्तौ स्तः। एतौ दृष्ट्वा कथं तव इन्द्रियनिग्रहं बाधितुं न शक्नोति, एतावत् इन्द्रियनिग्रहं कृत्वा भवान् कथं भवितुं शक्नोति, कोपं सर्वं निगृह्य इन्द्रियाणि सर्वाणि अपि निगृह्य कथं वा भवितुं शक्नोति इति नकुलसहदेवस्य विषये वदति। अस्तु, एतान् भ्रातॄन् त्यजतु, भवतः ईदृशीं स्थितिं चित्तवृत्तिम् अहं न अवगन्तुमपि शक्नोमि, अहं न जानामि, कारणं चित्तरूपा विचित्ररूपाः सन्ति मनोव्यापाराः इति उक्तवती प्राक्तनश्लोके। मनोव्यापाराः चित्तवृत्तयः विचित्राः खलु इति, अतः अहम् अवगन्तुं न शक्नोमि। किन्तु भवतः एतादृशीम् आपत्स्थितिं दृष्ट्वा मम मनोव्यथाः मम मनः बाधन्ते, मम मनः पीडयन्ति, अहं बहु कष्टम् अनुभवामि भवतः स्थितिं दृष्ट्वा इति उक्त्वा, पुनः भवतः युधिष्ठिरस्य स्थितिः कथम् आसीत्, इदानीं कथम् अस्ति इति अनेन श्लोकेन वदति। पूर्वं भवान् स्तुतिगीतिमङ्गलैः मङ्गलस्तुतिभिः प्रबोधितः आसीत्, इदानीं तु शिवारुतैः, शिवा इति जम्बूकः, जम्बूकस्य शब्देन इदानीं जागृतः अस्ति भवान् इति श्लोकम् इतोपि सम्यक् पश्यामः। यः महाधनं शयनम् अधिरूढः, महाधनं बहुमूल्यकम् अल्पमूल्यकं बहुमूल्यं शयनं शय्याम् अधिरूढः नाम आरूढः आसीत्। भवान् पूर्वं महाधनं शयनम् अधिरूढः, अधिशीं स्थासां कर्म इति सूत्रेण अत्र द्वितीया विभक्तिप्रयोगः शयनम् इति, अथवा नो चेत् शयने रूढः इति सप्तमी विभक्तिः भवेत्, अत्र अधिप्रयोगत्वात् द्वितीया विभक्तिप्रयोगः। महाधनं कीदृशं शयनं, महाधनं शयनम् अधिरूढः आसीत् भवान् पूर्वं, यः पूर्वं महाधनं शयनम् अधिरूढः आसीत् सः इदानीं कथमस्ति, स्तुतिगीतिमङ्ग पुनः अधिरूढः, तत् शयने निद्रां कुर्वन् कथं प्रबोधितः आसीत् इत्युक्ते स्तुति गीति मङ्गलैः पुरा विबोध्यसे त्वं स्तुति गीति मङ्गलैः. स्तुति नाम विशेषगुणवर्णनं स्तुतिः इति उच्यते, तदेव गीतरूपेण गीयते चेत् गीतिः इति उच्यते. स्तुतयः गीतयः तदेव मङ्गलानि भवन्ति. एतादृशं गीतं तु वैतालिकाः इति भवन्ति राज्ञः सभायां, तेषां वैतालिकानां कार्यम् एव एतदेव भवति. सर्वदा राज्ञः समयसूचकाः ते. राज्ञः समयसूचनार्थं कदाचित् स्नानसमयः, भोजनसमयः, शयनसमयः, मन्त्रालोचनसमयः इति एकैकं वारं समयं सूचयितुम् एतादृशैः मङ्गलस्तुतिभिः राजानं सूचयन्ति वैतालिकाः. कदाचित् ऋतोः वर्णनं कुर्वन्ति, कदाचित् समयस्य वर्णनं कुर्वन्ति, कदाचित् राज्यस्थितिवर्णनं कुर्वन्ति, कदाचित् राज्ञः गुणवर्णनं कुर्वन्ति. तदेव मङ्गलानि, तदेव स्तुतिगीति मङ्गलैः पुरा विबोध्यसे, भवान् प्रबोधितः आसीत्. यः महाधनं शयनम् अधिरूढः, महाधनं शयनम् अधिरुह्य स्तुतिगीति मङ्गलैः अति उत्तमैः मङ्गलैः गीतैः मङ्गलाभिः स्तुतिभिः च प्रबोधितः आसीत् सः. भवान् इदानीं कथमस्ति? अदभ्रदर्भां स्थलीम् अधिशय्य. दभ्र इत्युक्ते अल्प इति अर्थः. अदर्भ अदभ्र दभ्र क्षम्यतां दर्भ न दभ्र. दभ्र इत्युक्ते अल्पः, अदभ्र इत्युक्ते अनल्पः. अनल्पः न अल्पः, अनल्पः अधिकः इति अर्थः. अधिकदर्भां स्थलीम् अधिशय्य, अत्रापि स्थलीम् अधिशय्य इति अस्ति. अधि इति समान सूत्रकारणेन अत्र स्थलीम् इति द्वितीया विभक्तिप्रयोगः. स्थली इत्युक्ते स्थलम् इति एव अर्थः, देशः प्रदेशः इति. कीदृशीं स्थलीम् अधिशेते भवान् इत्युक्ते अदभ्रदर्भाम्, अत्यधिकदर्भाः यस्मिन् स्थले सन्ति तादृशं स्थलम् इदानीम् अधिरूढः अस्ति, अधिशय्य वर्तते भवान्. अदभ्रदर्भां स्थलीम् अधिशय्य. दर्भ इति तृणविशेषं, प्रायेण दर्भान् प्रसार्य तस्य उपरि निद्रां, तादृशीं स्थलीम् अधिशय्य तत्र निद्रां करोति. कथम् उत्थितः भवति इत्युक्ते अशिवैः शिवारुतैः. शिवः इत्युक्ते मङ्गलम्, अशिवः इत्युक्ते अमङ्गलम्. अमङ्गलैः शिवारुतैः, फीमेल् फाक्स् शिवा इति पदस्य जम्बूकः, तस्य ऋतः नाम शब्दः, अत्र रोदनशब्दः. शिवायाः रोदनेन, रोदनशब्देन निद्रां जहासि. जहासि इत्युक्ते त्यजसि इति अर्थः. जहाति हा धातुः, जहासि निद्रां त्यजसि. पूर्वं भवान् तत्र यदा महाधनं शयनम् आरूढवान् आसीत् तदा मङ्गलस्तुतिभिः विबोध्यसे इति उक्तवती, अत्र केवलं निद्रां जहासि इति वदति. कारणं पूर्वं सः उत्तमं शयनम् अधिरूढः सन् सम्यक् निद्रां कृत्वा, सुखं निद्रां कृत्वा निश्चिन्तम् उत्थितवान् इति कारणात् विबोध्यसे इति पदस्य प्रयोगः. अत्र केवलं निद्रां त्यजसि तावदेव, केवलं निद्रायाः त्यागः क्रियते, किन्तु निश्चिन्ततया उत्तिष्ठति, सुखं निद्रां कृत्वा उत्तिष्ठति इति अत्र अर्थः न स्यात्. अत एव तत्र विबोध्यसे इति पदस्य प्रयोगः, अत्र निद्रां जहासि इति पदस्य. केवलं निद्रां त्यजति तावदेव. अस्मिन् श्लोके विषमालङ्कारः इति उच्यते, भेदप्रदर्शनं. पूर्वं कथम् आसीत् इदानीं कथम् अस्ति इति भेदप्रदर्शनं विषमालङ्कारः इति. पूर्वं कथम् आसीत्? महाधनं शयनम् अधिरूढः, अत्युत्तमं बहुमूल्यं शयनं प्राप्य निद्रां कृत्वा स्तुतिगीतिमङ्गलैः पुरा विबोध्यसे. मङ्गलैः शब्दैः, स्तुतिभिः, गीतिभिः च तदेव मङ्गलानि भवन् आसन् तैः प्रबोधिताः आसीत् पूर्वं विबोध्यसे सः एव इदानीं कथमस्ति अदभ्रदर्भां स्थलीं कीदृशीं स्थलं दर्भयुक्तां स्थलीं दर्भैः निर्मितां स्थलीम् अधिशय्य अदभ्र अत्यधिक अत एव बहुलकुशाम् इति अस्ति बहुल नाम बाहुल्यं बहु इति अर्थः अदभ्रदर्भां स्थलीम् अधिशय्य तत्र निद्रां कृत्वा अशिवैः अमङ्गलैः शिवारुतैः शिवानां शब्दैः रोदनशब्दैः निद्रां त्यजति केवलं निद्रायाः भङ्गः एव जायते अमङ्गलैः शब्दैः किन्तु चिन्तायाः तु एतत् नास्ति सुखं प्रबोधितवान् इति वक्तुं न शक्यते निश्चिन्तं प्रबोधितवान् इति वक्तुं न शक्यते भावार्थं हे नृप पुरा त्वम् अन्तःपुरेषु बहुमूल्येषु तूलिकातल्पेषु शयमानः तूलिकातल्पः मेट्रस् इति अर्थः मेट्रस् शयमानः मङ्गलवाचकैः स्तोत्रपाठकैः पाठैः जागरितः आसीत् जागरितः भवसि अद्य तु अरण्येषु कठिनस्थलीषु कुशास्तरणेषु कुशा आस्तरणम् इत्युक्ते कुशैः निर्मिता शय्या इति अर्थः आस्तरणम् इत्युक्ते शय्या अथवा आसनम् इति अर्थः आस्तरणेषु शयमानः अमङ्गलैः क्रोष्टुशब्दैः विबोध्यसे क्रोष्टुः इत्युक्ते शिवा इति अर्थः तव इयं विपत्तिः शत्रोः अपि मास्तु एतादृशी विपत्तिः शत्रोः अपि मास्तु शत्रुः अपि एतादृशीम् अवस्थां न अनुभवेत् इति द्रौपद्याः आशयः अनेन श्लोकेन अग्रे पुनः एतदेव अनुवर्तते द्रौपदी नवत्रिंशः श्लोकः पुरोपनीतं नृपरामणीयकं द्विजातिशेषेन यदेतदन्धसा तदद्यते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः पुरा उपनीतं नृप रामणीयकं द्विजातिशेषेन यत् एतत् अन्धसा तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः अनेन श्लोकेन द्रौपद्या उच्यते यत् पूर्वं भवान् उत्तमं भोजनं कृत्वा तेन भोजेन तव शरीरं पोषितम् आसीत् इदानीं तु वन्यफलाशी अस्ति वने विद्यमानानि फलानि खादन् विद्यमानस्य तव शरीरम् इदानीं कार्श्यं प्राप्तमस्ति कार्श्यं कृशत्वं प्राप्तमस्ति तव शरीरं हे नृप यत् एतत् इति एतत् शरीरम् इति अर्थे एतत् पुरा पूर्वं द्विजातिशेषेण अन्धसा रामणीयकम् उपनीतम् द्विजातिः द्विजायते इति द्विजः द्विजातिः द्विजः अथवा द्विजातिः ब्राह्मणः द्विजातिशेषेण ब्राह्मणभुक्त अवशेषं यत् अस्ति तेन अन्धसा रामणीयकम् उपनीतम् अन्धस् इत्युक्ते भोजनमिति अर्थः कीदृशेन अन्धसा इत्यस्य विशेषणं ददाति द्विजातिशेषेण तद् बहु श्रेष्ठं भोजनं भवति यागयज्ञादिकं कृत्वा तदनन्तरं ब्राह्मणान् भोजयित्वा ब्राह्मणानां भुक्त अवशिष्टं यत् अन्धः आसीत् भोजनम् आसीत् तेन भोजनेन पोषितं शरीरम् इदम् अतः रामणीयकम् उपनीतम् एकं सौन्दर्यं प्राप्तं शरीरम् इद् द्विजातिशेषेण अन्धसा ब्राह्मणाः भुक्ताः आसन् तत्र ते तत्र अवशिष्टं यद् अस्ति तेन शेषेण भोजनेन रामणीयकं प्राप्तं तव शरीरम् इदानीम् अद्य कथम् अस्ति इत्युक्ते ते तव तत् वपुः ते तत् वपुः कीदृशस्य ते इत्युक्ते वन्यफलाशिनः, वने भवं वन्यं, वन्यानि फलानि अश्नाति इति वन्यफल फलाशी इति भवति वन्यफलाशिनः इति षष्ठीविभक्तिः एकवचनं। वन्यफलाशिनः तव, केवलम् अत्र वने विद्यमानं फलं सर्वं एव खादति इति वन्यफलाशी अस्ति भवान्, तादृशस्य तव तत् वपुः, तादृशस्य तव वपुः शरीरं परं कार्ष्यं परैति, अत्यन्तं परम् इत्युक्ते अत्यन्तं कार्ष्यं कृशत्वं परैति प्राप्नोति। केन सह इत्युक्ते यशसा समं, दुर्योधनः तत्र सम्यक् राज्यपरिपालनं कृत्वा यथा तव यशः हीयते क्षीयते तथा सः राज्यं कुर्वन् अस्ति, अतः तव यशः अपि इदानीं कार्ष्यं प्राप्नोति, तव शरीरमपि कार्ष्यं प्राप्नोति, अतः यशसा सह समम् इति पदस्य सह इति अर्थः, यशसा समं यशसा सह प्रयोगे तृतीया विभक्ति, अतः यशसा सह तव वपुः अपि अत्यन्तं कार्ष्यं प्राप्नोति, रामणीयकम् उपनीतं तत् शरीरं द्विजातिशेषेण ब्राह्मण भुक्तशेषेण अवशिष्टेन भोजनेन तव सौन्दर्यं प्राप्तं तव वपुः शरीरम्, इदानीं वन्यफलाशिनः तव शरीरं कार्ष्यं प्राप्नोति, तव यशसा सह यशः अपि कार्ष्यं प्राप्नोति इति विषयद्वयमपि इति उक्तत्वात् सहोक्ति अलङ्कारः, सह समं साकम् इत्यादिकं पदमस्ति चेत् तत्र प्रायेण सहोक्ति अलङ्कारः भवितुम् अर्हति। यशसा समं यशः अपि क्षीयते, तव वपुः अपि क्षीयते, शरीरमपि क्षीणं प्राप्तम् इति उक्तत्वात् सहोक्ति अलङ्कारः अत्र। भावार्थं हे नृप, पूर्वं यत् तव शरीरं द्विजभुक्तत्व अवशिष्टेन अन्नेन रम्यं दृश्यते तद् अद्य क्षीयते, तव कीर्तिः अपि क्रमशः कृशा भवति, अपकीर्तिः मरणात् अतिरिच्यते खलु। चत्वारिंशः श्लोकः। अनारतं यौ मणिपीठशायिना वरं जयद्राजशिरस्रजाम्रजः निषीदतस्थौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम्। अनारतं यौ मणिपीठशायिनौ अरञ्जयत् राजशिरः स्रजां रजः निषीदतः तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम्। इदानीं विदुष्टिरस्य चरणौ कीदृशौ आस्तां पूर्वम्, इदानीं तौ चरणौ कथं स्तः इति वदति द्रौपदी। पूर्वम् अनारतं सर्वदा मणिपीठशायिनौ यौ चरणौ, यौ चरणौ इति पूर्वं तौ भवतः द्वौ चरणौ अपि कुत्र शयितौ आस्ताम् इत्युक्ते मणिपीठशायिनौ, मणिभिः विद्यमानः पीठः, पीठः नाम फलकं, पीठः यः अस्ति तस्मिन् निषीदतौ चरणौ, तस्मिन् आसीनौ शरणौ। अत्र शायिनौ इति पदेन शायी इत्युक्ते निद्रां करोति, चरणः चरणौ तत्र निद्रां कुरुतः इति अर्थः न, तत्र विद्यमानौ चरणौ, तत्र स्थापितौ चरणौ इति अर्थः। तत्र आसन्नौ चरणौ यौ मणिपीठशायिनौ राजशिरस्रजां रजः अरञ्जयत्। अत्र रजः इति पदमेव कर्तृपदं, मणिपीठशायिनौ यौ इति द्वितीया विभक्तिः द्विवचनं कर्मपदं, राजशिरस्रजां रजः, रजः यौ चरणौ अरञ्जयत् इति अन्वयः भवति चेत् अर्थः सरलः सरलेन सिध्यति। राज्ञां शिरः, शिरसि विद्यमान स्रक् पुष्पम् अथवा पुष्पमाला किमपि माला शिरसि, तदा पूर्वस्मिन् काले राजानः अपि शिरसि पुष्पाणि स्थापयन्ति स्म, अतः राज्ञां शिरस्सु विद्यमानाः या स्रजः आसन् स्रजामिति षष्टि बहुवचनं राजशिरसि विद्यमानानां पुष्पमालानां रजः मकरन्दः यौ चरणौ यौ मणिपीठशायिनौ चरणौ अरञ्जयत् सः रजः मकरन्दः तव चरणौ अरञ्जयत् नाम रक्त युक्तम् अकरोत् तव चरणं रक्तयुक्तौ अकरोत् तत् रजः रजः इत्यत्र मकरन्दम् इति अर्थः राजशिरस्रजां रजः नृप भूपतीनां शिरसु विद्यमानमालानां मकरन्दः यौ मणिपीठशायिनौ चरणौ मणिपीठे विद्यमानौ स्थापितौ चरणौ तव चरणौ अरञ्जयत् रक्तवर्णम् अकरोत् रक्तवर्णौ अकरोत् तौ ते चरणौ तादृशौ तव चरणौ चरणद्वयमपि इदानीं कथमस्ति इदानीं वनेषु निषीदतः वनेषु स्थापितौ चरणौ स्तः इदानीं तिष्ठतः निषीदति सीदति निषीदति इति सदल् धातोः निषीदतः इति सामान्य लट्लकारः एव चरणौ कुत्र निषीदतः वनेषु निषीदतः केषां वनेषु बर्हिषां वनेषु बर्हिस् इति कुश तृणविशेषः अत एव कुशानां वनेषु दर्भानां वनेषु निषीदतः कीदृशः अस्ति कीदृशम् अस्ति तत् वनं कीदृशेषु वनेषु इत्युक्ते मृग द्विज लूनशिखेषु वनेषु मृगाः द्विजाः ब्राह्मणाः मृगाः तु कुशानां चर्वणं कुर्वन्ति कुशान् खादन्ति वने विद्यमानान् कुशान् खादन्ति लूनः इत्युक्ते कर्तयति इति अर्थः मृगैः कर्तितशिखरभागः येषां तृणानाम् अस्ति तादृश कुशानां वनेषु इति अर्थः न केवलं मृगाः द्विजाः ब्राह्मणाः अपि तेषाम् अनुष्ठानादिकं कर्तुं कुशानाम् आवश्यकता अस्ति अतः ते आगत्य कुशानां कर्तनं कुर्वन्ति अतः मृगैः मृगैः हरिणैः इति स्वीकर्तुं शक्यते हरिणैः ब्राह्मणैः च लूनशिखा अस्ति लूनशिखाः सन्ति कुशाः लूनकर्तितशिखरभागः शिखाभागः यस्य शिखाभागाः येषां तृणानां तृणविशेषाणां कुशानां सन्ति तादृशेषु मृगद्विजलूनशिखेषु बर्हिषां वनेषु इति अर्थः स्वीकरणीयः अत्र कर्तनं कर्तनेन कुशानां कर्तनेन किन्तु विषमाः जाताः कुशाः सर्वे अपि समाः न सन्ति अतः इतोपि तस्य कुशानां तीक्ष्णता अधिका जायते तावत् तीक्ष्णानां कुशानां मध्ये इदानीं भवतः चरणौ तिष्ठतः इति वदति पूर्वं राजशिरस्रजां रजः सर्वेषां राज्ञां शिरसि विद्यमानमालानां परागः भवतः चरणौ कीदृशौ चरणौ मणिपीठशायिनौ मणिनां मणिभिः विद्यमानः पीठः तस्मिन् निषीदतः तव चरणौ तस्मिन् स्थापितौ तव चरणौ रजः अरञ्जयत् तद् मकरन्दः परागः तव चरणौ रक्तवर्णौ अकरोत् इदानीं तु तौ ते चरणौ तादृशौ तव चरणौ बर्हिषां मृगद्विजलूनशिखेषु वनेषु निषीदतः कुशानां वनेषु पुनः कीदृशम् अस्ति तद्वनम् इत्युक्ते यस्मिन् वने मृगैः द्विजैः लूनशिखरभागाः लूनशिखाः कुशाः सन्ति तादृशेषु वनेषु भवता चरणौ इदानीं निषीदतः स्तः निषीदतः तदेव तत्र स्तः इति प्रयोगः न करणीयः